एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा एकीकृत समाजवादिनः अध्यक्ष माधव कुमार नेपालः निगदति दलम् सामाजिक न्यायेन उत्पादन वृद्ध्या समान वितरणेन च सह वैज्ञानिक समाजवादस्य दिशम् प्रति अग्रे प्रवर्धते। प्रस्तावितेन समाजवादी प्रेस संगठन नेपालेन सह आबद्धैः पत्रकारैः सह यः काष्ठमण्डपे आयोजितायाम् अन्तरक्रियायाम् अध्यक्षो नेपालः अवदत् एमसीसी परियोजनायाम् संविधा सम्पादनावधौ नेपालेन असंलग्ना नीतिः न परित्यक्तव्या, कस्मिन्नपि सैन्य संगठने सुरक्षा क्षेत्रस्य अभ्यन्तरे च न स्थातव्यम्, स्वतन्त्र निर्णयनाधिकारश्च प्राप्तव्यः। अध्यक्षो नेपालः अभाषत बौद्धिक सम्पत्तौ अधिकारः भूमेः स्वामित्वम् लेखा परीक्षणम् च नेपालस्यैव निर्धार इतव्यानि, परियोजनायाम् नेपाली कर्मचारिणः श्रमिकांश्च स्थापनीयाः, आगामी निर्वाचनम् यावत् पञ्चदलीय संयुतिः यथावत् स्थाप्यते इति चर्चयन् अध्यक्षो नेपालः अभाषत अध्यादेश प्रवृत्ति विषयैः सर्वकारस्य विस्तारे विलम्बनम् जायमानम् वर्तते। नेकपा एमाले दलस्य अध्यक्षा केपी शर्मा ओली कथयति दलम् प्रतिपक्षे सदपि समृद्धो नेपाल सुखिनो नेपालिनश्चेत् निर्णयस्य दायित्वाय किमपि अन्तरम् न भवति। एमाले दलस्य काष्ठमण्डप जनपद समित्या ह्य आयोजितम् विस्तारित प्रशिक्षण कार्यक्रमम् सम्बोधयन् अध्यक्षा ओली दलाभ्यन्तरैरेव कश्चित् नेतृभिः स्वनेतृत्वस्य सर्वकारः निपातित इत्यारोपयत्। अध्यक्षा ओली दलात् पृथक् भूय गतान् नेतृन् कार्यकर्तृंश्च पुनः मूलदलमेव प्रत्यावर्तितुम् अन्वरुणत्। एमाले दलस्य उपाध्यक्षा बागमती प्रदेशस्य मुख्यमन्त्री च अष्टलक्ष्मी साकी अवदत् दले कतिचित् समस्यानां सर्जनात् गहन तया समीक्षा अग्रे वर्धनम् आवश्यकमस्ति। दलस्य महासचिवः ईश्वर पोखरेलः अकथयत् दशसूत्रीय प्रस्ताव दले रचनात्मक रूपेण क्रियान्वीयते। दलस्य स्थायी समितेः सदस्यः बागमती प्रदेश प्रभारी च रामबहादुर थापा अगदत् वामैकतायाः अभियानम् एमाले दलेन अग्रे वर्धापितम् सदपि कतिचित् समस्यानाम् उद्भवनात् एतासु सुधारम् कृत्वा अग्रे वर्धितव्यम्। पूर्व प्रधानमन्त्रिणा डाक्टर बाबुराम भट्टराई इत्यनेन सत्तारूढ गठबन्धने आबद्धानां दलानां शीर्ष नेतृन् पूर्वेद्यो पृथक् पृथक् मिलित्वा पञ्चसूत्रीय परामर्शा प्रदत्ता सन्ति। पूर्व प्रधानमन्त्री डाक्टर भट्टराई प्रधानमन्त्रिणा सेवादेवाभिधेन, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन, नेकपा एकीकृत समाजवादिन अध्यक्षेण माधव कुमार नेपालेन च सम्मिलित्वा अध्यादेशस्य विषयम् शीघ्रम् समाधाय सर्वकाराय पूर्णताम् दातुम् अनुरुणत्। अनेन राष्ट्रिय सहमतिम् सन्धार्य एमसीसी नामिका अमेरिका देशीय सहयोग परियोजना पारितीकर्तुम् बलम् दत्तमस्ति। असौ प्रतिपक्षिणा सह विमृश्य आयव्ययक पारितीकरणस्य वातावरणम् निर्मातुम् शीर्ष नेतृन् अनुरुद्धवान्। जनता समाजवादी दलस्य संघीय परिषद अध्यक्षेण च डाक्टर भट्टराई इत्यनेन गठबन्धनस्य सर्वैः प्रमुख दलैः दलानां शीर्ष नेतृभिश्च राष्ट्रिय सहमतिम् सन्धार्य वर्तमान गठबन्धनस्य संसद पूर्ण कार्यकालम् निर्वाचनम् च यावत् संस्थापनार्थम् वातावरणम् निर्मातुम् दायित्ववाहकैर्भाव्यमिति परामृष्टम् वर्तते। काष्ठमण्डप जनपद प्रशासन कार्यालयेन पर्वोत्सवान् सांकेतिक रूपेण आयोजयितुम् अनुरोधम् वर्तते। प्रमुख जनपदाधिकारिणा गोविन्द प्रसाद रिजालेन यः पर्वोत्सवान् स्वास्थ्य मापदण्डान् पूर्णता परिपाल्य न्यूनतम सहभागितायाम् सांकेतिक रूपेण समायोजयितुम् आदिश्य अनुरोधमस्ति। कोविड 19 संक्रमणस्य विद्यमानत्वात् अनावश्यक रूपेण गृहात् बहिः निष्क्रमणस्य सम्मर्दस्य जनयात्राया प्रदर्शनस्य भोजस्य च कार्याणि न कर्तुम् आदिश्य उक्तम् वर्तते। शैक्षिक संस्थाभिः भौतिक्याम् उपस्थितौ पठन पाठनादिकम् कर्तुम् न शक्यते। कर्तव्यम् सद् स्थानीय स्तरैः विद्यालयानाम् सञ्चालनात् पूर्वम् स्वस्य पालिका स्तरे कोविड 19 संक्रमणस्य अवस्थाया विश्लेषणम् विद्यालये कार्यरतैः शिक्षकैः सह सर्वैः जनैः अनिवार्यतः टीकाकरणञ्च विधाय अभिभावकैः सम्बद्ध जनैश्च सह विमर्शनम् समन्वयञ्च कृत्वा सुव्यवस्थित परिपिधानस्य प्रावधानस्य अभ्यन्तरे स्थित्वा स्थानीय स्तरैः जनपद कोविड 19 संकट व्यवस्थापन केन्द्रेण सह समन्वयञ्च संस्थाप्य विद्यालयाः सञ्चालयितुम् शक्यन्ते इति आदेशे उल्लिखितमस्ति। नेपाले ह्य अतिरिक्तेषु 1,500 च जनेषु कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण सम्प्रति गृहकान्तवासेषु संस्थागत एकान्तवासेषु च कोरोना विषाणो 25,000 2,77,000 च सक्रिय संक्रान्तानाम् जनानाम् उपचारः विधीयमानो वर्तते। कोरोना संक्रमणेन आराष्टम गतदिने अतिरिक्तः एकादश जनाः मृताः। एतदनु आराष्टम ह्यस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या 11,002 च प्राप्तास्ति। कोरोना संक्रमणेन मृतेषु जनेषु सर्वाधिकं 60-69 वर्षाणां वयसमूहस्य 122,23 जनाः, न्यूनतम संख्यायाञ्च नववर्षतो न्यूनवयस्काः 47 जनाश्च मृताः इति मन्त्रालयेन ज्ञापितं वर्तते। त्रिभुवन विश्वविद्यालयेन यथासम्भवम् अद्यतः भौतिक्याम् उपस्थितौ एव कक्षा सञ्चालयितुं सर्वे महाविद्यालयाः अनुरुद्धाः सन्ति। त्रिभुवन विश्वविद्यालयस्य कार्यकारी परिषदः भाद्रस्य 27 दिवसे उपवेशेन स्थानीयस्तरै सह समन्वयं विधाय संकट नियन्त्रणाय सावधानताम् अवलम्ब्य भौतिक्याम् उपस्थितौ एव कक्षाणां सञ्चालनस्य व्यवस्थां विधातुं निर्दिष्टमिति त्रिभुवन विश्वविद्यालयस्य सूचना जनसम्पर्क महाशाखाया प्रमुख योगेन्द्र प्रसाद दाहाल अज्ञापयत्। अद्य आश्विन संक्रान्तौ शिल्पी वर्गेण विश्वकर्मण पूजाराधने विधाय विश्वकर्म दिवस समायोज्यमानो वर्तते। विभिन्नासु यन्त्रशालासु भगवतो विश्वकर्मण बालुकामूर्तौ चित्रेवा सविधि पूजाराधने कृत्वा दिवसोऽयं समायोज्यते। यन्त्रशाला विशेषेण विभूष्य श्रमिकांश्च सहभागिनो विधाय एष दिवस समायोज्यते। द्वापरयुगे भगवान् कृष्ण राक्षसैः दुःखसहजन मनु विश्वकर्मणा समुद्रस्य मध्यभागे भेदद्वारकां निर्माय गोपायितः इति विश्वासो वर्तते। रात्रावधि समुद्रस्य मध्ये भेदद्वारकायाः निर्माणस्य कारणेन विश्वकर्माणं सफलं वास्तुविदं मत्वा ततः पूजाराधनयोः परम्परा प्रतिष्ठितेति नेपाल पञ्चाङ्ग निर्णायक समितेः पूर्वाध्यक्ष धर्मशास्त्रविद् च प्राध्यापक डाक्टर रामचन्द्र गौतमो गदति। वास्तुशास्त्र पुस्तकस्य लेखकानाम् अध्येतॄणां च स्मृतौ दिवसोऽयं वास्तुविद्भिः वास्तुदिवसस्य रूपेण च मन्यते। नवीन प्रजातेः कोरोना विषाणो संकटस्य विद्यमानत्वात् स्वास्थ्य मापदण्डान् परिपाल्य विश्वकर्मण पूजाराधनयोः पूर्वकार्यं कृतमिति ज्ञापितम् अस्ति। रामेछाप धादिङ सिन्धुली जनपदानां पृथक पृथक स्थानेषु इह दुरापन्नासु यान दुर्घटनासु 6 म्रियन्त। रामेछाप जनपदस्य मन्थली नगरपालिकाया प्रथमवडा क्षेत्रस्थिते हात्तीटार स्थाने बेलोरो जीपयाने दुर्घटिते सति एकस्यैव परिवारस्य जनद्वयेन सहिता त्रयोजना मृता। धादिङ जनपदस्य गल्छी ग्रामपालिकाया 6 क्षेत्रवर्तिनी महेश नद्या संगमस्थले मार्गे लघु ट्रक यानेन पदातिजन प्रहृत सन् एकः। एतस्यैव जनपद थाकरे ग्रामपालिकाया 7 क्षेत्रस्थिते सोप्याम खोलास्थाने ट्रकयानम् गतिनियन्त्रणोपकरणस्य विफलतया मार्गात् आसन 80 मीटर मिताध पतितं सत् एकश्च जनौ मृतौ। इति समाचारः।